ಸ್ವೀಕರಣೆ ನಾಸ್ತಿ, ದಾನೆ ಅಸ್ತಿ. ಇತರೇಭ್ಯ ದಾನೆ ವಿದ್ಯಾ ಪ್ರೀತಿ ಯತ್ಕಿಮಿ ಬಹುದು ಅಸ್ಮಿ ಇತರೇಭ್ಯ ಯದ ದೀಯತೆ ತತ್ರ ಶಾಶ್ವತ ಆನಂದ ಬಹುದು. ವ್ಯಕ್ತಿಗತ ಭೋಗೆ ತಾತ್ಕಾಲಿಕ ಆನಂದ, ಶಾಶ್ವತ ಸುಖಂ ಅಪೇಕ್ಷಿತಂ ಚೇತ್. ಯತ್ ಸಾಮಾನ್ಯ ಉದಾಹರಣೆಯನ್ನು ಭವಂತಃ ಸರ್ವೇ ಅವಗಂತು ಶಕ್ನುವಂತೆ ಪ್ರಬುದ್ಧ, ಜಿಲೇಬಿ ಅಥವಾ ಯತ್ಕಿಮಿ ಮಧುರಂ ತತ್ ಅದ್ಯ ಖಾದತಿ ಚೇತ್ ಇದಾನಿ ಅರ್ಧ ಘಂಟಾ ಪರ್ಯಂತಂ ತಸ್ಯ ಆಸ್ವಾದನ ತಸ್ಯ ಸ್ಮರಣಂ ಅನಂತರಂ ನಾಸ್ತಿ. ಪರಂತು ತದೇವ ಮಧುರಂ ಯದಿ ದಶ ಜನಾನಾಂ ಕೃತೆ ದದಾತಿ ತದಾ ದಶ ಜನಾನಾಂ ಮುಖೆ ಯಹ ಆನಂದಃ ಆಸೀತ್ ಯತ್ ಸ್ಮಿತ ಹಾಸಃ ಆಸೀತ್ ತತ್ ದೃಷ್ಟ್ವಾ ಭವತಃ ಯತ್ ಸಂತೋಷ ಭವತಿ ಸಮಾಧಾನಂ ಭವತಿ ತತ್ ದಶ ದಿನಾನಂತರಂ ದಶ ವರ್ಷಾನಂತರಂ ಅಪಿ ಸ್ಮೃತ್ವಾ ಭವಾನ್ ಆನಂದಂ ಅನುಭವಿತುಂ ಶಕ್ನೋತಿ. ಅತಃ ಸ್ವಯಂ ಭಕ್ಷಣೆ ತಾತ್ಕಾಲಿಕ ತೃಪ್ತಿ, ಪರಂತು ಇತರೇಷಾಂ ಭೋಜನೆ ಸ್ಥಿರ ಶಾಶ್ವತ ಆನಂದ. ಸುಖಸ್ಯ ಲಕ್ಷಣಂ ಏತದೇವ, ಸುಖಸ್ಯ ಮೂಲಂ ಏತದೇವ. ಅತಯೇವ ವದಂತಿ ಸುಖಸ್ಯ ಮೂಲಂ ದಾನಂ ಇತಿ, ಅಸ್ಮಾಕಂ ಅರ್ಥಶಾಸ್ತ್ರೇ ಉಕ್ತಮಸ್ತಿ. ದುಃಖಸ್ಯ ಮೂಲಂ ಸ್ವಾರ್ಥಂ, ಸುಖಸ್ಯ ಮೂಲಂ ಪರಸೇ. ಏತಾದೃಶಂ ತತ್ವಂ ಅಸ್ಮಾಕಂ ಸಮೀಪೆ ಅಸ್ತಿ, ಅಸ್ಮಾಕಂ ಸಮೀಪೆ ಟೆಕ್ನಾಲಜಿ ಅಸ್ತಿ, ಸುಖಸ್ಯ ಟೆಕ್ನಾಲಜಿ ಅಸ್ಮಾಕಂ ಸಮೀಪೆ ಅಸ್ತಿ, ಭಾರತೇ ಅಸ್ತಿ. ವಯಂ ತಸ್ಯ ಉಪಯೋಗಂ ಕುರುವಂತಃ ನಸ್ಮ. ಅಸ್ಮಾಕಂ ಜೀವನಮಪಿ ಅರ್ಥಪೂರ್ಣಂ ಸಾರ್ಥಕಂ ಕರ್ತುಂ ಅಪರಮಪಿ ಏಕಂ ವಿಷಯಂ ಅಹಂ ವದಾಮಿ. ಬಹುಶಃ ಸಂದರ್ಭೇಶು ಅಸ್ಮಾಕಂ ಮನಸ್ಸಿ ದುಃಖಂ ಭವತಿ, ಕಷ್ಟಂ ಭವತಿ, ಪೀಡಾ ಭವತಿ. ಬಹೂನ್ ವಿಷಯಾನ್ ಜ್ಞಾತ್ವಾ ಭವತ ನಾಮ ಧರ್ಮಸ್ಯ ಗ್ಲಾನಿ ವಿಷಯೆ ದೃಷ್ಟ್ವಾ ಅಸ್ಮಾಕಂ ಚಿಂತಾ ಭವತಿ. ಅಥವಾ ಅತ್ರ ಅಸ್ಮಾಕಂ ಯೇ ಅಮೇರಿಕಾ ದೇಶೇ ನಿವಸಂತಿ, ಅತ್ರತ್ಯ ಸೆಕೆಂಡ್ ಜನರೇಷನ್ ಥರ್ಡ್ ಜನರೇಷನ್ ಯೇ ಬಾಲಾಃ ಸಂತಿ, ತೇಷಾಂ ವ್ಯವಹಾರಂ ದೃಷ್ಟ್ವಾ, ತೇಷಾಂ ವೈಲೆನ್ಸ್ ದೃಷ್ಟ್ವಾ, ಹಿಂಸಾಚಾರಂ ದೃಷ್ಟ್ವಾ, ಅಥವಾ ತೇಷಾಂ ಪ್ರಕೃತಿ ದೃಷ್ಟ್ವಾ ಅಸ್ಮಾಕಂ ದುಃಖಂ ಭವತಿ. ಕಿಂ ಕಿಂ ಭವೇತ್, ಭವಿಷ್ಯಂ ಕಿಂ. ಏಕೈಕ ಅಪಿ ಪಿತಾ ಚಿಂತಿತಃ ಅಸ್ತಿ, ಮಾತಾ ಏಕೈಕ ಮಾತಾ ಪಿತಾ ಚಿಂತಿತಃ ಅಸ್ತಿ, ಮಮ ಪುತ್ರಸ್ಯ ಪುತ್ರ್ಯಃ ಭವಿಷ್ಯಂ ಕಿಂ, ವಿಂಶತಿ ವರ್ಷಾನಂತರಂ ಕಿಂ ಕುರ್ಯಾತ್ ಇತಿ ಚಿಂತಾ ಭವತಿ ದುಃಖಂ ಸರ್ವೇ. ಅಥವಾ ಧರ್ಮ ವಿಷಯ, ಮಾತೃಭೂಮಿ ವಿಷಯ, ಕಸ್ಮಿನ್ನಪಿ ವಿಷಯ ಅಸ್ಮಾಕಂ ದುಃಖಂ ಅಸ್ತಿ. ಪರಂತು ತೇನ ಕಿಂ ಇತಿ ಪ್ರಶ್ನ, ದುಃಖ ಕೇವಲ ದುಃಖರೂಪೇಣ ಕೇವಲ ತಿಷ್ಟತಿ ಚೇತು ತೇನ ಕಿಮಪಿ ನ ಫಲತಿ. ಏಕಂ ಉದಾಹರಣ ಮುದ ರಾಜ ರಾಮ್ ಮೋಹನ್ ರಾಯ್ ಇತಿ ನಾಮ ಭವಂತಃ ಶ್ರುತವಂತಃ, ಯಹ ಭಾರತೆ ಸತಿ ಪದ್ಧತೇ ಸಹಗಮನ ಪದ್ಧತೇ ವಿರುದ್ಧ ಆಂದೋಲನಂ ಕೃತವಾನ್. ಸತಿ ಉತ್ತಮಂ ಅನುತ್ತಮಂ ಇತಿ ಇದಾನಿಂ ತತ್ವ ಚಿಂತನಂ ಮಮ ಪ್ರಶ್ನ ನಾಸ್ತಿ. ಪರಂತು ಅನಿಚ್ಛತಾಂ ಮಹಿಳಾನಾಂ ಬಲಾತ್ಕಾರೇಣ ಸತಿ ಕರ್ತುಂ ಪ್ರೇರಣ ಅಗ್ನೌ ಸ್ಥಾಪನಂ ಏತತ್ ಅಸಮೀಚೀನಂ ಆಸೀತ್ ತದಾ ತತ್ ಪ್ರವರ್ತತೆ ಸ್ಮ. ರಾಮಮೋಹನ್ ರಾಯಸ್ಯ ಅಗ್ರಜಃ, ರಾಮಮೋಹನ್ ರಾಯ್ ತದಾ ಯುವಕಃ ಆಸೀತ್, ಅಗ್ರಜಃ ಅಪಿ ಯುವಕಃ. ವಿವಾಹಾನಂತರ ವರ್ಷದ್ವಯಂ ಏವ ಸಮಾಪ್ತಂ ಆಸೀತ್, ಪುತ್ರ ಸಂತಾನಮಪಿ ತದಾ ತಸ್ಯ ನ ಆಸೀತ್, ವಿವಾಹಸ್ಯ ಸ್ವಲ್ಪ ಕಾಲೇ ಏವ ಸಹ ಅಗ್ರಜಃ ಮೃತಃ ಭವತಿ ದಿವಂಗತಃ ಭವತಿ. ತದಾ ಬದ್ಧು ಜನಾಃ ಸರ್ವೇ ವದಂತಿ ಪತ್ನೀ ತಾಂ ಯುವತಿಂ ವದಂತಿ ಭವತ್ಯಾ ಇದಾನಿಂ ಸತಿ ಕರಣೀಯಂ ಇತಿ. ಸತಿ ಅರ್ಥಾತ್ ಚಿತಾಯಾಂ ಅಗ್ನೌ ಪ್ರವೇಶಃ ಸ್ವಶರೀರಂ ಸ್ಥಾಪನೀಯಂ ಮರಣಮೇವ. ಸಾ ನ ಇಚ್ಛತಿ ಸ್ವ, ಸಾ ಪುನಃ ಪುನಃ ಉತ್ತಾನ ಅಹಂ ಸತಿಂ ನ ಇಚ್ಛಾಮಿ, ಅಹಂ ಜೀವನಂ ಇಚ್ಛಾಮಿ, ಅಹಂ ನ ಬ್ರಿಯೇ. ಭಿನ್ನ ಭಿನ್ನ ಪ್ರಕಾರೇಣ ಪ್ರಾರ್ಥನಾಂ ಕೃತವತಿ. ಪರಂತು ಬಾಂಧವಾಃ ನ ತ್ಯಕ್ತವಂತಃ. ಯದಾ ಸ್ಮಶಾನಂ ಪ್ರತಿ ಶವಯಾತ್ರಾಯಾಃ ಆರಂಭಃ ಅಭವತ್ ತದಾ ತಾಂ ಸಹ ಪ್ರಕೋಷ್ಠಸ್ಯ ಅಂತಃ ಗತ್ವಾ ಗೃಹಸ್ಯ ಅಂತಃ ಪ್ರಕೋಷ್ಠೆ ದ್ವಾರಂ ಪಿಧಾಯ ಉಪವಿಷ್ಟವತಿ. ಬಾಂಧವ ಬಲೇನ ದ್ವಾರ ಉದ್ಘಾಟನಂ ಕೃತ ತಾಂ ಗೃಹೀತ್ವಾ ಗೃಹೀತ್ವಾ ಚೀತ್ಕಾರಂ ರೋದನಂ ಕುರುವತಿ ತಾಂ ನ ನ ನ ಇತಿ ವದತಿ, ತಾಂ ಗೃಹೀತ್ವಾ ಸ್ಮಶಾನಂ ನೀತವಂತಃ. ಸ್ಮಶಾನೆ ಶವಂ ಕಾಷ್ಠೇಷು ಸ್ಥಾಪಯಂತಿ ಚಿತಾಯಾಂ ಅಗ್ನಿಸ್ಪರ್ಶ ಅಭವತ್ ಅಗ್ನಿಜ್ವಾಲಾಃ ಉದ್ಗತಾಃ. ತದಾ ಸಾ ಯುವತಿ ಪ್ರಾರ್ಥನಾ ಕರೋತಿ ಮಾಂ ತ್ಯಜತು ತ್ಯಜತು ಮಾಂ ಮೋಚಯತು ಅಹಂ ಜೀವನಮಿಚ್ಛಾಮಿ, ಪಾದೌ ಗೃಹೀತ್ವಾ ಪ್ರಾರ್ಥನಾ ಕರೋತಿ ಭಿನ್ನ ಭಿನ್ನ ಪ್ರಕಾರೇಣ ಪ್ರಾರ್ಥನಾ ಕರೋತಿ. ಪರಂತು ಬಾಂಧವಾಃ ನ ತ್ಯಕ್ತವಂತಃ. ಬಾಂಧವಾಃ ಬಲೇನ ತಾಂ ಉದ್ಧೃತ್ಯ ಅಗ್ನಿ ಮಧ್ಯೆ ಸ್ಥಾಪಿತವಂತ. ಅಗ್ನೌ ಜ್ವಲಂತಿ ಸಾ ಚೀತ್ಕಾರಂ ಕುರುವತಿ ಬಹಿಃ ಆಗಮನಾಯ ಪ್ರಯತ್ನಂ ಕರೋತಿ. ತದಾ ತೇ ಬಾಂಧವಾಃ ಕಾಷ್ಠೇನ ತಾಂ ತತ್ರೈವ ನೋದನಂ ಕುರುವತಿ ಯಾವತ್ ಪರ್ಯಂತಂ ತಸ್ಯಾಃ ಧ್ವನಿ ಶಾಂತಃ ಭವತಿ ತಾವತ್ ಪರ್ಯಂತಂ ತಾಂ ತತ್ರೈವ ಕರ್ತಂತೆ. राममोहन राय पश्यति स्म सर्वं पश्यति स्म अश्रुधारा आरब्ध तत्रैव उपविष्टवान् बन्धुजनाः गतवन्तः सः तत्रैव उपविश्य रोदनं करोति रोदनं करोति सायङ्कालपर्यन्तं न अनन्तरदिनपर्यन्तं न त्रीणि दिनानि रात्रित्रयं निरन्तरम् अश्रुगङ्गा अश्रुगङ्गा परन्तु अश्रुगङ्गायाम् एव तस्य दुःखं न समाप्तम् तृतीयदिने सायङ्काले सः तत्रैव प्रतिज्ञां करोति सङ्कल्पं करोति एषा या दुष्टा पद्धतिः अस्ति एतस्याः दुष्टपद्धतेः निवारणम् एव मम जीवनकार्यं निश्चयं करोति तदनन्तरं सः समग्रसमाजस्य विरुद्धम् आन्दोलनस्य विचारप्रचारस्य आरम्भं करोति अष्टादशवर्षाणि यावत् निरन्तरम् एकाकी समाजविरुद्धं सङ्घर्षं कृतवान् पण्डिताः उक्तवन्तः वेदे एतदस्ति शास्त्रसम्मतम् इति वेदाध्ययनं कृतवान् शास्त्राध्ययनं कृतवान् उक्तवान् अनन्तरं न वेदेषु शास्त्रेषु सतिपद्धतेः अनुमतिर्नास्ति इति प्रकटितवान् पत्रिकां प्रकाशितवान् अन्ते ब्रिटिश् शासनद्वारा परिवर्तनम् आगतम् कथम् एकं परिवर्तनम् आगतं समग्रदेशे सा सतिपद्धतिः निवारिता एकव्यक्तिहृदये यत् दुःखम् उत्पन्नं तत् दुःखं कष्टं पीडा केवलं पीडारूपेण कष्टरूपेण दुःखरूपेण न स्थितं तत् दुःखं तस्य जीवने क्रियारूपेण प्रकटितम् अभवत् तदा समाजे परिवर्तनम् आगतम् एवमेव या अस्माकं सर्वेषां हृदये या पीडा अस्ति यत् दुःखमस्ति या चिन्ता अस्ति किं भवेत् सा चिन्ता तत् दुःखं सा पीडा यदि अस्माकं सर्वेषाम् एकैकस्य जीवने क्रियारूपेण प्रकटितं भवति तर्हि न केवलम् अस्माकं जीवने परिवर्तनम् आगच्छेत् अपि तु समाजे सर्वेषां जीवने परिवर्तनम् आगच्छेत् आम् राजा राममोहन राय सः स्वजीवने स्वव्यक्तिगतजीवने सुखस्य अनुभवं न कृतवान् परन्तु समाजजीवने शाश्वतकालाय सुखम् अनीतवान् व्यक्तिगतजीवनस्य सुखस्य अग्निस्पर्शं कारयित्वा समाजजीवनस्य सुखस्य मधुस्पर्शं कारितवान् कोटिकोटि मातॄणाम् अश्रुमार्जनं कारितवान् एवमेव अपरमेकम् उदाहरणं वदामि अल्बर्ट् स्विसर् इति कश्चन महान् सेवकः आसीत् भवन्तः बहवः तस्य जीवनचरितं पठितवन्तः स्युः बयोग्रफि पठितवन्तः स्युः अहं तस्य जन्मस्थानादिविषये अधिकं न जानामि परन्तु यावत् जानामि तावत् वदामि तत्त्वं भावं केवलं गृह्णन्ति बहुशः यूरोप् देशे कुत्रापि तस्य जन्म अभवत् सः एकस्मिन् विद्यालये प्राचार्यः आसीत् प्रतिदिनं रात्रौ निद्रातः पूर्वं बैबल् पठति स्म तत्र एकस्मिन् दिने रात्रौ यदा बैबल् पठति स्म एकं वाक्यं पठितवान् मच् इस् एक्स्पेक्टेड् आफ् दोस् फार् होम् मच् इस् गिवन् येभ्यः भगवान् बहु दत्तवान् तस्मात् पुनः भगवान् बहु अपेक्षां करोति इति तस्य चिन्ता आरब्धा भगवान् मह्यं बहु दत्तवान् मयापि तर्हि दातव्यमस्ति किं दातव्यं किं दातव्यं प्रातःकालपर्यन्तं चिन्ता अभवत् तस्य निद्रा न आगता प्रातःकाले समाचारपत्रं वार्तापत्रं न्यूस् पेपर् पठति स्म तदा एकां वार्तां पठितवान् आफ्रिकादेशेषु अरण्यप्रदेशे तत्र वनवासीजनाः सन्ति चिकित्सकानाम् अभावतः तत्र बालाः साङ्क्रामिकरोगतः म्रियमाणाः सन्ति इति तदा भगवतः सन्देशं सः अवगतवान् बैबल् वाक्यस्य अर्थं ज्ञातवान् साक्षात् विद्यालयं गतवान् त्यागपत्रं लिखित्वा स्थापितवान् मेडिकल् कालेज् प्रविष्टवान् तत्र अध्ययनं कृतवान् तत्र तस्य समानविचारशीलस्य एका अन्या महिलापि लभ्यते अनन्तरं द्वौ अपि विद्या वैद्यकीयविद्याभ्यासं कृत्वा तत्र आफ्रिकादेशेषु अरण्यप्रदेशे गच्छन्ति वनवासिनां तत्र सेवां कुर्मः इति परन्तु सरलतया ते न अङ्गीकुर्वन्ति ते वनवासीजनाः एतान् दृष्ट्वा चिन्तयन्ति एषः पुनः नागरिकः अस्माकं शोषणार्थम् आगतवान् इति ते बाणप्रयोगं कुर्वन्ति स्म परन्तु एषः न त्यक्तवान् त्यक्त्वा न गतवान् षण्मासपर्यन्तं तत्र प्रतीक्षां कृतवान् प्रयत्नं कृतवान् तान् अङ्गीकारयितुम् एकस्मिन् दिने ते वनवासीजनाः एकं बालं शिशुं सः साङ्क्रामिकरोगतः मरणसमीपे अस्ति इति शिशुं त्यक्त्वा गच्छन्ति तदा एषः गत्वा तेषां तस्य शिशोः चिकित्सां करोति दूरतः ते सर्वे पश्यन्ति स्म बहुदिनानि ते अपि दृष्टवन्तः एषः अपि चिकित्सां कृत्वा तं शिशुं जीवयति तत् दृष्ट्वा तेषां वनवासिनां जनानां मनसि विचारपरिवर्तनमागतम्, ओ एषः शोषणार्थं नागतवान् अपि तु एषः अस्माकं सेवां कर्तुम् आगतवान् इति ते आगत्य एतस्य स्वागतं कृतवन्तः. तस्मात् दिनात् अल्बर्ट् स्विसरस्य सेवा साम्राज्यस्य आरम्भः अभवत्, पूर्णरूपेण परिवर्तनम् आगतम्. अद्य तस्य व्यक्तिगतजीवनविषये 200+ पुस्तकानि प्रकाशितानि सन्ति. तादृशसेवां सः अद्भुतचित्रनिर्माणं कृतवान्. कथं तादृशमहत् जीवनं सः कृतवान्? एकस्मिन् दिने रात्रौ तस्य मनसि विचारः आगतः यत् मयापि बहु कर्तव्यमस्ति, करणीयमस्ति, इतरेषां सुखाय भगवान् मह्यं बहु दत्तवान्, तर्हि मयापि दातव्यमस्ति, मयापि करणीयमस्ति, कर्तव्यं जातवान्. एतादृशानि बहूनि उदाहरणानि सन्ति. एकः द्वितीयमहायुद्धकालस्य एकम् उदाहरणमस्ति. सेकेण्ड् वर्ल्ड् वार् सन्दर्भे फ्रान्स् देशस्य कस्मिंश्चित् भागे मित्रसैन्यं, मित्रदेशानां सैन्यं जर्मन् सैन्यविरुद्धं युद्धं करोति स्म. प्रथममहायुद्धस्य, फस्ट् वर्ल्ड् वार् प्रथममहायुद्धस्य एकं म्याप् स्वीकृत्य सैन्यस्य एकभागः गच्छति स्म. तत् म्याप् अनुसारं तस्मिन् प्रदेशे तत्र न अरण्यं, न पर्वतं, किमपि न, सामान्य तद् प्रदेशः आसीत्. तदर्थं ते तथा गतवन्तः. परन्तु पश्यन्ति तत्र अरण्यम् अस्ति, ओ अरण्यमस्ति इति ते पुनः 5 किलोमीटर् दक्षिणदिशि गच्छन्ति, तत्रापि अरण्यम्, इतोपि 5 किलोमीटर् गतवन्तः, तत्रापि अरण्यम्, ओ तर्हि दोषः भवति इति पुनः उत्तरदिशि आगतवन्तः, उत्तरदिशि 5 किलोमीटर् गतवन्तः, अरण्यं, पुनः 5 किलोमीटर् उत्तरदिशि गतवन्तः, अरण्यं, सर्वत्र अरण्यम्. इदानीं समस्या अभवत्, तेषां तात्कालिक सेट् बेक् अभवत्. अनन्तरं युद्धे जयः भवति. तत् यत् कमाण्ड् तदासीत्, रेजिमेण्ट् आसीत्, तस्य तात्कालिकपराजयः भवति. एतत् म्याप् मध्ये यदासीत्, वास्तविकरूपेण यदासीत्, तत्र भेदः आसीत्. युद्धसमाप्ति अनन्तरं कमिशन् आयोगस्य रचना भवति. म्याप् दोषः अथवा तत्र यः दण्डनायकः सेनापतिः आसीत् तस्य दोषः वा इति अध्ययनं कर्तुम् आयोगरचना अभवत्. अन्ते आयोगस्य रिपोर्ट् एवमासीत् यत् दण्डनायकस्य अपि दोषः नास्ति, सेनाधिपतिदोषः अपि नास्ति, म्याप् दोषः अपि नास्ति. वास्तविकता एषा आसीत्, प्रथम वर्ल्ड् वार् समये तत् म्याप् निर्मितम् आसीत्, तदा तस्मिन् प्रदेशे अरण्यं न आसीत्. तदनन्तरं किं जातं? तत्र कश्चन अजपालकः आसीत्, यः अजान् पालयति, लालयत् शेफर्ड् आसीत्, सः खल्वाटः आसीत्, केशाः नासन् अत्र. यदा अजान् पालयति स्म सूर्यतापेन अत्र ललाटे, अत्र शिरसि सूर्यतापेन अत्र वेदना भवति स्म, तस्य केशाः न सन्ति इति कारणतः. मम एतत् कष्टम् इतरेषां मा भवतु इति तस्य मनसि एकः विचारः आगतः. मम इदानीं या वेदना भवति अत्र इतरेषां मा भवतु इति. सः प्रतिदिनं प्रातः गमनसमये एकमुष्टिपरिमितं कस्यचित् वृक्षविशेषस्य बीजानि स्वीकृत्य सर्वत्र एवं स्थापयति स्म. प्रतिदिनम् एवं 20 वर्षाणि यावत् एतत् कार्यं सः कृतवान्. 18, 17 अथवा 20 वर्षाणि यावत् प्रतिदिनम् एकमुष्टिपरिमितबीजानि सः स्थापयति स्म. तेन समग्र तत्र भूभागे, भूभागस्य यत् टोपोग्रफि इति तस्यैव परिवर्तनम् अभवत्. एकव्यक्ति मनसि यदि इच्छा भवति, नाम तस्य तपः इत्युक्ते एतदेव, दीर्घकालं 15-20 वर्षाणि यावत् एतदेव कुर्वन्ति. असाध्यं किमपि नास्ति एतस्मिन् जगति. प्रबल इच्छा निर्माणं भवेत्, प्रबल इच्छा, तीव्र इच्छा, मया एतत् साधनीयम् इति. स्वामी विवेकानन्दः अमेरिका यूरोप् देशेषु सर्वत्र वेदान्त डिण्डिमवादनं कृत्वा यदा भारतदेशं प्रति प्रतिगमनसन्दर्भे पत्रकाराः तं प्रश्नं पृच्छन्ति, भो विवेकानन्द, भवान् अल्पेन कालेन समग्र अमेरिकादेशे, यूरोप् देशे वेदान्ततरङ्गनिर्माणं कृतवान्, कथम् एतावत् कर्तुं शक्तः? कीदृशी शक्तिः? किं चैतन्यं? प्रेरणायाः मूलं किं? रहस्यं किम्? स्वामी विवेकानन्दः तदा उक्तवान्, यदा रामकृष्णपरमहंसः तत्र अस्मान् सर्वान् बालसन्यासिनः त्यक्त्वा समाधिं गतः, ब्रह्मैक्यः जातः, वयं 15-20 बालसन्यासिनः आस्म, सर्वेपि बालसन्यासिनः कलकत्तानगरे एकस्मिन् जीर्णभवने उपरितनप्रकोष्ठे निवासं कुर्म स्म. तत् भवनम् एतादृशम् आसीत् यत् वृष्टिः यदागच्छति जलं सर्वम् अन्तः, सूर्यतापः साक्षात् सूर्यप्रकाशः शिरसि पतति स्म, भिक्षाटनेन कठिनरोटिकाः लभ्यन्ते स्म, यदि एकः सन्यासी गृहात् बहिः गच्छति अन्येषां सर्वेषां गृहबन्धनं, हौस् अरेस्ट्, कारणम् एकम् एव दीर्घयुतकम् आसीत्, तत् धृत्वा एकः गच्छति चेत् अन्यैः सर्वैः गृहे भवितव्यम्। एतादृशकठोरदारिद्र्यसमये एकस्यापि बालसन्यासिनः मनसि एषा चिन्ता नासीत् यत् मम रोटिका कुतः, मम युतकं कुतः, सूर्यतापः जल, तत् चिन्ता न आसीत्, परन्तु एकैकस्य मनसि एकः एव विचारः आसीत् यत् रामकृष्णपरमहंसस्य सन्देशः विश्वे सर्वत्र प्रसारणीयः, रामकृष्णसन्देशः नेतव्यः, रामकृष्णसन्देशः नेतव्यः, तदेकमेव मनसि गुञ्जनं, तस्य गुञ्जनं भवति स्म, ध्येयस्य अनुरणनं भवति स्म, प्रतिध्वनिः भवति स्म, प्रतिक्षणं तत् ध्येयं प्रेरणां ददाति स्म। तेन एकेन एव अद्य वयम् अहम् अत्र अमेरिकापर्यन्तं रामकृष्णसन्देशः आगतः इति स्वामी विवेकानन्दः उक्तवान्। एतानि सर्वाणि उदाहरणानि दृष्ट्वा इतः वयमपि पाठं पठितुं शक्नुमः, अस्माकं जीवनलक्ष्यं किं, किं साधनीयम् एतस्मिन् जन्मनि, किम् अहं केवलं मम व्यक्तिगतजीवनं केवलं साधयामि अथवा मया सह अन्यानपि सर्वान् नेष्यामि सुखं प्रति। वयम् आचार्यत्रयेषु शङ्कराचार्य, मध्वाचार्य, रामानुजाचार्य इति जानीमः। रामानुजाचार्यस्य एकजीवनघटनं पश्यतु। तस्मै सः यदा तमिळ्नाडुराज्ये प्रवासे आसीत्, रामानुजाचार्याय एकः मन्त्रोपदेशं करोति, अपि च वदति एतं मन्त्रं केवलं ब्राह्मणान् पाठयतु, यः एतं मन्त्र उपदेशं प्राप्नोति सः साक्षात् मोक्षं प्राप्नोति इति। अपि च सः वदति, गुरुः भवान् एतत् केवलं ब्राह्मणान् पाठयति, यदि अन्यान् पाठयति भवतः शक्तिः समाप्ता भवति, अपि च भवान् मोक्षं न प्राप्नोति, नरकं गच्छति, अनन्तरं भवता एषा मन्त्रशक्तिः न भवति इति। सः आगच्छन् प्रवासं कुर्वन् कर्णाटके, तत्र मैसूरु इति समीपे नञ्जनगूडु इति तत्र आगच्छति, तत्र आगत्य तत्र यत् मन्दिरमस्ति मन्दिरस्य छतिका उपरि स्थित्वा सः ग्रामजनान् सर्वान् आह्वयति, आहूय सर्वान् जनान् आहूय मन्त्रोपदेशं करोमि इति। तदा कश्चन पृच्छति, भवतः गुरुः उक्तवान् ब्राह्मणान् विना अन्यान् न उपदिशतु इति, उपदिशति चेत् नरकं गच्छति इति, कथं भवान् सर्वान् उपदिशति? सः रामानुजाचार्यः वदति, हा, मम नरकगमनेन एतेषां सर्वेषां स्वर्गगमनं भवति चेत्, मोक्षः भवति चेत् महान् सन्तोषः, इतोप्यधिकं किम् इति सः मन्त्रोपदेशं करोति। मम नरकगमनेन इतरेषाम् एतेषां सर्वेषां स्वर्गगमनं भवति चेत् इतोप्यधिकं पुण्यं किम्? आदर्शचिन्तनस्य एतादृश असङ्ख्य उदाहरणानि अस्माकं पूर्वजानां जीवनदर्शनानि अस्माकं पुरतः सन्ति। एतत् सर्वं मनसि निधाय वयम् एतस्य कालस्य अद्यतनकालस्य परिस्थितिम् अवगत्य इदानीं कीदृशः एकः सुवर्ण अवकाशः अस्ति, अद्य विश्वे एकं व्याक्यूम् अस्ति, तत् पूरयितुं वयम् अस्माकं भारतीयदर्शनद्वारा वयं तां रिक्ततां पूरयितुं शक्नुमः, येन वयम् अस्माकमपि जीवनं सार्थकं कर्तुं शक्नुमः। अन्ते मम एतावदेव निवेदनं यत् वयं सर्वे अपि एतत् जीवनम् अर्थपूर्णं कर्तुं एतस्मिन् महाज्ञानयज्ञे, एतदेकं महाज्ञानयज्ञम्, एतस्मिन् ज्ञानयज्ञे यथा वयं वदामः प्रातस्मरणसमये, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानम् आहुतं मन्ये, नाम यज्ञसमये समिदः अर्पयामः वयं भूमे, एकैकम् एकैकं समिदः अर्पयामः वयं सर्वे अपि, यदि अस्माकं जीवनम् अपि एकं समित् इव एतस्मिन् यज्ञे वयम् अर्पयितुं शक्नुमः, तर्हि ज्ञानयज्ञेन विश्वस्य कल्याणं भवेत्। एतत् शरीरम् अपि पवित्राग्नौ आहुतं सत् पावित्र्यं प्राप्नुयात् सर्वत्र पवित्रतायाः प्रसारः भवेत् सा पवित्रगङ्गा पुनः सर्वत्र प्रहृता सति पुनः सर्वत्र संस्कृतसुगन्धं प्रसारयेत् तावदेव मम एतस्मिन् सन्दर्भे निवेदनम्।
क्वेश्चन स्टेटमेंट।